आदाय दिव्यकुसुमानि मनोहराणि श्रीपादपूजन विधिं भवदंग्रिमूले कर्तुं महोत्सुकतया प्रविशन्ति भक्ताः श्री सत्यसाई भगवन् तव सुप्रभातम्।